इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। भारतस्य प्रधानमन्त्री नरेन्द्रमोदी ग्रीसस्य प्रधानमन्त्री किरियाकोस मित्सो ताकिसस्य द्वयोः देशयोः मध्ये रणनीतिक सम्बन्धं प्रबलं कर्तुं स्वप्रतिबद्धतां पुनरुक्तवन्तौ। दूरवाणी संवादस्य माध्यमेन उभौ नेतारौ भारत मध्य पूर्व यूरोप आर्थिक विषये च पश्चिम एशियायां विकासेन च सह विभिन्न क्षेत्रीयाणां वैश्विक समाह्वानानां च विषये चर्चां कृतवन्तौ। तौ व्यापार रक्षा नौकावहन सम्पर्क इत्यादिषु द्विपक्षीय सहयोगानां अनेकेषु क्षेत्रेषु प्रगतेः समीक्षां कृतवन्तौ। विदेशमन्त्री डॉ एस जयशंकरः अद्य आरभ्य ऑस्ट्रेलिया सिंगापुर देशयोः षड्दिवसीय यात्रायां भविष्यति। विदेशमन्त्री डॉ एस जयशंकरः ब्रिस्बेन नगरं सम्प्राप्य ऑस्ट्रेलिया देशे भारतस्य चतुर्थ वाणिज्य दूतावासस्य उद्घाटनं करिष्यति। सः कैनबरा नगरे स्वस्य ऑस्ट्रेलिया देशीय समकक्षेण पेनी वोंग इत्यनेन सह पञ्चदशतमे विदेशमन्त्री रूपरेखा संवादस्य सः अध्यक्षः अपि भविष्यति। विदेशमन्त्री ऑस्ट्रेलिया देशस्य संसद भवने आयोजितस्य द्वितीयस्य रैसिना डाउन अंडर इत्यस्य उद्घाटन सत्रे मुख्य भाषणं प्रदास्यति। यात्रायाः द्वितीये चरणे डॉ जयशंकरः अस्मिन् मासे अष्टमे दिनांके आधिकारिक यात्रायै सिंगापुरं गमिष्यति, यस्मिन् सः आसियान इंडिया नेटवर्क ऑफ थिंक टैक्स इत्यस्य अष्टमं वृत्तोत्पीठिका इति राउंड टेबल सम्मेलनं संबोधयिष्यति। सः सिंगापुरस्य नेतृत्वेन सह मिलित्वा द्वयोः देशयोः सहभागितायाः समीक्षां करिष्यति तथा च द्विपक्षीय सम्बन्धम् इतोप्यधिकं संवर्धनाय चर्चां करिष्यति। रक्षामन्त्रिणा राजनाथसिंहेन उक्तं यत् भारतस्य आत्मनिर्भर अभियानं वांछितपरिणामः प्रददाति तथा च देशः ऊनविंशत्यधिकद्विसहस्र त्रिंशोत्तरद्विसहस्रतमवर्षपर्यन्तं रक्षानिर्यातस्य 50,000 कोटिरूप्यकाणि यावत् प्राप्तुं सज्जः अस्ति। भारतीय प्रौद्योगिकी संस्थाने आईआईटी कानपुरे 65वें स्थापना दिवसोत्सवं संबोधयन् रक्षामंत्री भारतीय यूनाम आह्वानं कृतवान् यत्ते उच्चस्तरीय प्रौद्योगिकीनां स्वदेशीय रूपेण विकासं कुर्वन्तु, येषां देशः आयातं करोति, येन प्रधानमन्त्रिणः नरेन्द्रमोदिनः विकसित भारतस्य दृष्टिकोणः साकारो भविष्यति। भाजपायाः वरिष्ठः नेता तथा केन्द्रीय गृहमन्त्री अमितशाहः गतसायं रांचीराज्ये सम्प्राप्तवान्। श्रीशाहः राज्य भाजपा नेतृभिः साकं निर्वाचनस्य सज्जतायाः समीक्षां करिष्यति। झारखण्ड विधानसभा निर्वाचनस्य प्रभारी शिवराजसिंह चौहानः उक्तवान् यत् श्रीशाहः अद्य भाजपादलस्य संकल्पपत्रस्य विमोचनं करिष्यति। केन्द्रीयमन्त्री अद्य घाटशिलायाः धालभूम गढ़े हजारीबागस्य बरकट्ठायां चतरायाः सिमरियायां च नैर्वाचनिक जनसभां संबोधयिष्यति। इदानीं निर्वाचने धनशक्तेः प्रभावम् अवरोधयितुं राज्ये सर्वत्र अन्वेषणकार्यक्रमाः तीव्रगत्यां प्रचलन्ति। माओवादिनः गृहीतुं उत्तरप्रदेश बिहार मध्यप्रदेश छत्तीसगढ़ ओडिशा राज्यानां सीमान्तक्षेत्रेषु संयुक्ताभियानाः समारब्धाः सन्ति। कश्मीरोत्पत्यकायाम् अनन्तनाग जनपदे हल्कन मार्गिका क्षेत्रे सुरक्षाबलैः सह जाते संघर्षे 3 आतंकिनः मारिताः।